सर्वेषां स्वागतं ध्येयमन्त्रेण वर्गम् आरम्भं कुर्मः अस्तु भगिनि शारदा भगिनी सविता
भगिनी सविता
सविता भगिनी
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्याम विश्वं शान्ति समन्वितम् ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः हरिः ओम् धन्यवादः
धन्यवादः भगिनी सम्यक् आसीत् अस्तु अद्य वयं विभक्तिवल्लरीं पठामः खलु गतवर्गे वयं चतुर्थीविभक्तिरूपम् आरम्भं कृतवन्तः चतुर्थी विभक्ति इति अस्ति चेत् कुत्र आगच्छति प्रथमम् अस्ति दानक्रिया दानक्रिया यत्र अस्ति तत्र प्रथमा विभक्ति दानक्रिया इति वदामः चेत् केवलं ददाति इति न प्रेषयामि प्रदर्शयामि इति कस्य कृते फार् द बेनिफिट् आफ् इति अर्थे अपि च रोचते रोचते इति क्रियापदम् अस्ति चेत् तत्र अपि चतुर्थीविभक्तिरूपं भवति यस्मै रोचते तस्य चतुर्थीविभक्ति साधनं यस् यत् रोचते तत्तु प्रथमाविभक्ति भवति रामाय लेखनी रोचते एव लेखनीम् इच्छति रामः लेखनीम् इच्छति परन्तु रामाय लेखनी रोचते इति अस्ति तृतीयमस्ति नमः नमः इति पदम् अस्ति चेत् चतुर्थीविभक्तिरूपं भवति रामाय कृष्णाय लक्ष्म्यै इति एवम् एवमेव चतुर्थं नियमम् अस्ति क्रुध्यति कुप्यति असूयति ईष्यति द्रुह्यति एतानि क्रियापदानि वाक्ये सन्ति चेदपि चतुर्थीविभक्तिरूपं भवति अपि च कल्पते कल्पते अथवा भवति इति अर्थे चतुर्थीविभक्तिरूपं पुनः आगच्छति भक्तिः ज्ञानाय कल्पते इत्युक्ते भक्तिः इति अस्ति चेत् न्यायसम्पादने न्यायसम्पादनं भवति न्याय उत्पादनं भवति उत्पादने समर्था भवति इत्युक्ते वयं अभ्यासं कुर्मः चेत् वयं पण्डितः भवामः पण्डिताय कल्पते इति अर्थे भवति इट् बिकम्स् इति इट् जनरेट्स् इति अर्थे अस्ति अद्य वयं सर्वनामपदम् उपयुज्य पश्यामः सो अत्र चार्ट् मध्ये गच्छामः एतावत् पर्यन्तं कुत्र चतुर्थीविभक्तिरूपं भवति इति दृष्टवन्तः इदानीं वयं कथं लिखामः रूपाणि कानि इति वयं जानीमः कृष्णाय रामाय गणेशाय सो अत्र प्रथमाविभक्ति अकारान्तपदमस्ति चेत् आय एभ्यः अत्र एव एभ्यः भवति पुल्लिङ्गे एव एभ्यः अपि च नपुंसकलिङ्गे, परन्तु सर्वत्र अकारान्त, अकारान्तपुल्लिङ्ग अकारान्त नपुंसकलिङ्गे एव एभ्यः आय एभ्यः. सो अत्र अ अस्ति चेत् आभ्याम्, इ अस्ति चेत् इभ्याम्, उ अस्ति चेत् उभ्याम्, ऋ अस्ति चेत् ऋभ्याम्, एवमेव रमा अपि रमाभ्यामेव, राम अपि रामाभ्यामेव, रामभ्यां न भवति, रामाभ्यां, रमाभ्याम्, अकार वा आकार वा द्वौ अपि आभ्यामेव. सो अत्र तृतीया चतुर्थी पञ्चमी आभ्याम् आभ्यां द्विवचने आभ्याम्, रामेण रामाभ्यां रामैः, रामाय रामाभ्यां रामेभ्यः. सो अत्र आभ्यां तृतीया चतुर्थी पञ्चमी विभक्ति रूपाणि एवमेव भवति द्विवचने आभ्याम्. अस्तु, एवमेव नपुंसकलिङ्गे अपि आभ्यां पुस्तकं, पुस्तकाय पुस्तकाभ्यां पुस्तकेभ्यः, पुस्तकेन पुस्तकाभ्यां पुस्तकैः. अस्तु, अकारान्त वा आकारान्त वा आभ्याम्, इकारान्त इभ्याम्. अस्तु, इदानीं पुल्लिङ्गपदानि पश्यामः. इकारान्त अस्ति चेत् अये भवति, इ अस्ति चेत् ये, यकारः भवति इ, ये अपि भवति. हरिभ्यां हरिभ्यः इभ्यः, अये इभ्याम् इभ्यः. गुरु अस्ति चेत् वकारः भवति, उ अस्ति चेत् व. परन्तु चतुर्थी विभक्तेः लक्षणम् अस्ति ए अस्ति, परये सो अत्र हरये गुरवे ए ए इति भवति, परन्तु इकार अस्ति चेत् य भवति, तत्र उकार अस्ति चेत् व भवति, ऋकार ऋ एव, रे पित्रे, गुरवे हर ये अये अवे, स्मरन्तु तत्र तस्मै श्री गुरवे नमः. अस्तु, इदानीं स्त्रीलिङ्गे, स्त्रीलिङ्गे रमायै रमाभ्यां रमाभ्यः आभ्यः. मति, मति अस्ति चेत् पुल्लिङ्गवत् मतये, गुरुः गुरवे धेनुः पुल्लिङ्गवत् धेनवे, अथवा एकनिमिषम्, स्त्रीलिङ्गवत् यै रमायै मत्यै, रमायै देन्वै, स्त्रीलिङ्गवत् अपि भवति पुल्लिङ्गवत् अपि अपि भवति, ह्रस्व अस्ति चेत् मत्यै देन्वै इति अस्ति अस्ति चेत् तथा भवति, परन्तु दीर्घ अस्ति चेत् विकल्पः नास्ति, यै अथवा वै, गौर्यै वद्वै, परन्तु मातृ मात्रे एवं भवति. परन्तु अत्र समानमेव, मतिभ्यां गौरीभ्यां धेनुभ्यां वधूभ्यां मातृभ्यां. नपुंसकलिङ्गे भिन्नरूपं, नकारः आगच्छति, अत्र रेफा अस्ति अतः ण भवति, अत्र रेफा षकार ऋकार न ऋकार एतानि अक्षराणि नास्ति न सन्ति अतः न एव अस्ति वारिणे मधुने मधुने वारिणे परन्तु वारिभ्यां वारिभ्यः मधुभ्यां मधुभ्यः प्रश्नः अस्ति वा पाटर्न् एवमेव अस्ति
भगिनि भगिनि एकः प्रश्नः अस्ति Sometime back, I remember, in some context, it was told, in Napumsakalingam, Tritiya Vipakti onwards, it will follow exactly the Pullingam.
Samyak.
Whereas here the deviation is coming in.
Correct, correct. But that is only for Akaranta Pullingam. Akaranta Napumsakalingam.
Oh, not for all.
Not for all, no.
Okay.
Correct. Akaranta Pullingam. अकारान्त नपुंसकलिङ्ग समानरूपं भवति तृतीया विभक्ति आरभ्य परन्तु इकार उकार इट् डजन्ट् फालो द पेटर्न् न बट् परन्तु समानरूपं रूपमेव चतुर्थी विभक्ति अस्ति चेत् ए वारिणे मधुने भवान् इति अस्ति चेत् भवते एवमेव ए ए ए ए इति भवति स्त्रीलिङ्गे यै 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 अथवा ए पुल्लिङ्गवत् भवति चेत् ए स्त्रीलिङ्गवत् भवति चेत् यै अथवा वै ऐ इति भवति अस्तु अग्रे इदानीं सर्वनामपदं पुल्लिङ्गे मै नपुंसकलिङ्गे अपि मै तस्मै श्रीगुरवे नमः तत् स्मरन्तु तत् तस्मै श्रीगुरवे नमः नमस्तस्यै पुल्लिङ्गे मै स्त्रीलिङ्गे यै यै मै इति वयं जानीमः चेत् सर्वत्र तथा एव भवति कस्मै कस्मै ददाति भवान् भवते तत्तु भिन्नरूपं भवते गुरवे वत् पुल्लिङ्गम् अस्ति खलु अतः ए परन्तु तस्मै कस्मै सर्वस्मै अस्मै अस्मै इदानीं मास्तु अग्रे पठामः मह्यं मह्यमपि भिन्नरूपं तुभ्यं मह्यं तुभ्यं कस्यै भवती भवत्यै सर्वस्यै पुल्लिङ्गवत् भवति कस्मै सर्वस्मै इति प्रश्नः अस्ति वा नास्ति चेत् अभ्यासं कुर्मः अस्तु कृष्णः एकस्मै किञ्चित् दर्शयति सो अत्र दानक्रिया नास्ति परन्तु कस्य कृते फार् हूस् बेनिफिट् अर्जुनाय दर्शयति इति सो अत्र दानक्रिया नास्ति परन्तु कस्य कृते कस्य हित कस्य हिते अस्तु एकस्मै कृष्णः एकस्मै किञ्चित् दर्शयति अन्यस्मै अन्यत् दर्शयति सः कस्मै किं दर्शयति इति अधः निर्दिष्टम् अस्ति तदाधारेण सर्वनामशब्दानां चतुर्थीविभक्तिं योजयन्तः वाक्यानि रचयत योजयित्वा वाक्यानि रचयत उदाहरणार्थं कृष्णः अस्तु उदाहरणं कुत्र अस्ति कृष्णः तस्मै चित्रं दर्शयति एतस्मै पत्रिकां दर्शयति सो अत्र सः इति प्रथमाविभक्तिरूपं चतुर्थीविभक्तिरूपं तस्मै कृष्णः तस्मै चित्रं दर्शयति सो अत्र ए अस्ति चेत् केवलम् ए योजयतु तस्मै एतस्मै तावदेव पत्रिकां दर्शयति पत्रिका इति प्रथमाविभक्ति एकवचनरूपं स्त्रीलिङ्ग अत्र द्वितीया विभक्ति अस्ति पत्रिकां दर्शयति इति अवगच्छन्ति वा अभ्यासं कथं करणीयमिति?
भगिनी, स्माल् डौट् हियर्.
स्वागतं सन्ध्या भगिनी. अन्य का अस्ति? सन्ध्या भगिनी अस्ति, अम्बा अस्ति, मम अम्बा अस्ति. स्वागतम् अम्ब. अन्य का अस्ति? नूतनछात्राः?
उषा.
उषा भगिनि, स्वागतं भगिनि. अस्तु अस्तु भगिनि, सन्ध्या भगिनी वदतु.
साधु भगिनि, नमो नमः. भगिनि, हौ डस् दिस् translate literally into English so that I can understand the usage of chaturthi? And can we say Krishna tasmai chitram darshayati?
Krishna showed him like that. We just say like I gave him money. Aham tasmai dhanam dattavati, like that.
Okay. It is not dvitiya, but
It is not dvitiya. See, him is also dvitiya, like talk to him. Talk to him, like, you know, it's not for his benefit. So atra for iti yojayamah chet chaturthi vibhakti iti spashtataya vaktum shaknumah. I gave for him, for his benefit iti.
Oh, okay. Wonderful, Bhagini. That clarifies it. It's not just him, but for him.
For him. I gave it for him.
Okay.
Dhanyavad, Bhagini. Astu. Astu. Avagachanti kaluk katam karaniyam iti Krishnah tasmai chitram darshayati. Krishnah etasmai patrikam दर्शयति. अस्तु, प्रथमं परमेश्वर महोदय. कृष्णः
येषां चाडिका
चाडिकां
what is that, Krishna? क्या होता है? Next, what is the connected thing?
Parantu Mahodaya, Saha iti asti che tasmai bhavati kalo, pullinge tasmai.
Tasmai?
Strilinge katam bhavati, strilinge. Yai bhavati, yai.
Tasyai
bhavati, samya, tasyai. कृष्णः तस्यै
शाटिका,
शाटिकां खलु, शाटिकां द्वितीया विभक्ति अस्ति चेत् शाटिकां दर्शयति. तस्यै एषा अस्ति चेत् किं योजनीयम्?
येषां
अत्र सः अस्ति चेत् तस्मै, एषः अस्ति चेत्
एतस्मै,
एतस्मै भवति. सो अत्र सा अस्ति चेत् तस्यै,
तस्यै शाटिकां, शाटिकां
दर्शयति. इदानीम् एषा अस्ति चेत् कृष्णः,
एतस्मै,
एतस्यै, एतस्यै
शाटिकां,
शाटिकां न, इट् बिकम्स्
कण्ठहार,
कण्ठहारं,
कण्ठहारं दर्शयति,
दर्शयति. तस्यै शाटिकां दर्शयति, एतस्यै कण्ठहारं दर्शयति. अस्तु, सम्यक्. अस्तु, अग्रे उमाकृष्णन् भगिनी.
कृष्णः भवति,
भवते, सम्यक्, भवते.
ग्रामः दर्शयति,
ग्रामः इति प्रथमा विभक्तिरूपं, द्वितीया विभक्ति ग्रामं, भवते ग्रामं दर्शयति, सम्यक्.
कृष्णः भवत्यै,
सम्यक्, भवत्यै नगरं दर्शयति. नगरं नगरम् एव. नगरं नगरे नगराणि, नगरं नगरे नगराणि. सम्यक्. शारदा भगिनि.
भगिनि, कृष्णः एतेभ्यः यक्षगानं दर्शयति, तेभ्यः चलनचित्रं दर्शयति.
सम्यक्. तेभ्यः एतेभ्यः तस्मै त्रीणि रूपाणि वदतु भगिनि. प्रथमतः एव
एतस्मै एताभ्याम् एतेभ्यः.
सम्यक्. एतस्मै एताभ्याम् एतेभ्यः. ते अस्ति चेत्
तस्मै ताभ्यां तेभ्यः.
सम्यक्. तस्मै ताभ्यां तेभ्यः. अस्तु, सम्यक्. श्रीनिवासमहोदय.
आं भगिनि, कृष्णः एताभ्यः नृत्यं दर्शयति, ताभ्यः नाटकं दर्शयति.
ताभ्यः त्रीणि रूपाणि.
एतस्यै एताभ्याम् एताभ्यः
तस्यै ताभ्यां ताभ्यः. तस्मै अस्ति चेत् कथं भवति? तस्मै ताभ्यां
तेभ्यः.
तेभ्यः, उत्तमं. तत्र तेभ्यः भवति, अत्र ताभ्यः भवति. अस्ति, ओन्लि डिफ्रेन्स्. सम्यक्. अत्र एकवारं तस्मै ताभ्यां तेभ्यः, तस्यै ताभ्यां तेभ्यः. सम्यक्. सोरि, तस्मै ताभ्यां तेभ्यः, तस्यै ताभ्यां ताभ्यः. ओके, सो अत्र तस्यै ताभ्यः, तस्मै तेभ्यः. सम्यक्. अस्तु, अग्रे सविता भगिनि.
आं भगिनि, कृष्णः
किञ्चित् भिन्नरूपं भवति. भवते भवद्भ्यां भवद्भ्यः. भवते भवद्भ्यां भवद्भ्यः. भवद्भ्यः इति अस्ति.
कृष्णः भवद्भ्यः विद्यालयं दर्शयति.
भवद्भ्यः विद्यालयं दर्शयति. अस्तु,
भवद्भ्यः कृष्णः
भवती इति स्त्रीलिङ्गवत्, गौरीवत्. गौरी कथम् अस्ति?
गौर्यै भवत्यै.
भवत्यै इति एकवचनं. अत्र भवत्यः इति अस्ति बहुवचनरूपम्. सो अतः भवत्यै भवतीभ्याम् ई अस्ति खलु, ईभ्यां
भवतीभिः
भवतीभ्यः
भवतीभ्यः. ओके, कृष्णः भवतीभ्यः कार्यालयं दर्शयति.
सम्यक्. अत्र पश्यतु, भवत्यै भवतीभ्यां भवतीभ्यः. चतुर्थी विभक्ति सर्वत्र भ्यः भ्यः भ्यः. तृतीया विभक्ति भिः, अत्र भ्यः. अवगतम्, उत्तमं. भवतीभ्यः, भवत्यै भवतीभ्यां भवतीभ्यः. सन्ध्या भगिनि.
चित्रकथा पुस्तकं
एकवारं पश्यामः अहं कथं भवति मह्यं क्षम्यता मह्यम् आवाभ्याम् अस्मभ्यः अस्मभ्यः अथवा मे नौ नः सन्ध्या भगिनी प्राब्लम् इति चिन्तयामि सन्ध्या भगिनी अस्ति वा अस्तु अम्ब वक्तुमिच्छति वा अम्ब अस्तु उषा भगिनी का आगच्छति अस्तु अस्तु तर्हि सन्ध्या भगिनी एव वदतु उषा भगिनी क्षम्यता नो
प्राब्लम् चित्रकथापुस्तकं कृष्णः मह्यं चित्रकथापुस्तकं
दर्शयति मह्यं दर्शयति वयं
कृष्णः अस्मभ्यं क्रीडनकानि दर्शयति
क्रीडनकानि दर्शयति मह्यम् आवाभ्याम् अस्मभ्यम् भ्याम् अस्मभ्याम् अथवा मे नौ नः अपि पश्यामः मे मह्यं मे अस्मभ्यम् अस्माभ्याम् इति प्राबब्लि प्रिण्टिङ्ग् मिस्टेक् अस्मभ्यम् अस्मभ्यम् अस्तु
चित्रकथापुस्तकं दर्शयति कृष्णः
मे नौ
इन्स्टेड् आफ् अस्मभ्यं वाट् इस् दि आल्टर्नेट् भगिनि
नः नः मे नौ नः
नः क्रीडनकानि
नः क्रीडनकानि दर्शयति अस्तु So only by practice we will become familiar with all this, okay? Idani ikara ukara rkara padani ado nirdishtam koshtakam patata chaturtyantani rupani chaturthi antani ya bhavati chaturthi e plus a ya bhavati अत्र चतुर्थ्यन्तानि रूपाणि इकार हरि अस्ति चेत् हरये हरिभ्यां हरिभ्यः हरये हरिभ्यां हरिभ्यः मतिः अत्र मत्यै इति लिखितमस्ति तत् सम्यक् एव अथवा मतये अपि अस्ति मत्यै मतिभ्यां मतिभ्यः अत्रापि धेन् वै अपि सम्यक् एव धेन् वै अथवा धेनवे गुरवे वत् धेनवे भवति अथवा मत्यै वत् धेन् वै इति अपि सम्यक् एव दधि दध्ने दधिने ओके मधुने अस्तु दधिभ्यां पित्रे मात्रे कर्त्रे कर्तृभ्यां अत्र पुनरेकवारं पश्यामः हरि इकार अस्ति चेत् अये परन्तु इभ्याम् इभ्याम् अहम् अस्तु इकार अस्ति चेत् हरये हरिभ्यां हरिभ्यः गुरु उकार अस्ति चेत् गुरवे सो अत्र एकवचनमेव वयं स्मर्तव्यम् अस्माभिः स्मर्तव्यं गुरुभ्यां गुरुभ्यः धेन्वै धेनवे धेनुभ्यां वारिणे एतानि रूपाणि नकारः भवति अस्तु अधो निर्दिष्टानां चतुर्थीविभक्तिरूपाणि लिखत उदाहरणार्थं शम्भुः प्रथमाविभक्तिरूपम् अस्ति चम्भुः. उकार अस्ति चेत् नियमः कः? उ अस्ति चेत् व भवति. चतुर्थी अस्ति चेत् ए भवति. शम्भवे द्विवचनं कथं भवति? शम्भुः शम्भुभ्याम्. बहुवचनं शम्भुभ्यः. सर्वत्र भ्यः मूलरूपमस्ति शम्भु. मूलरूपं शम्भु एव. सो अतः शम्भुभ्याम् शम्भुभ्यां शम्भुभ्यः. सर्वत्र दिस् इस् द नियमः. पाटर्न् एवमेव अस्ति. उकार अस्ति चेत् व भवति वकार. एवमेव कविः अस्ति चेत् अस्तु अम्ब वदति वा? अस्तु, नो चेत् उषा भगिनि.
आं भगिनि, कविः
स्वात्र ई अस्ति चेत् किं भवति?
ई कव्यः. कव्यः
कव
ई विल् बिकम् या, राइट?
या. And then for chaturthi, the lakshanam is A.
Kavaye.
Kavaye.
Kavaye, kavaye, kava,
kavi. So, atra, atra e asti kalo. So, atra e likitva kavi bhyam.
Kavi bhyam.
Kavi bhyam.
Kavi bhyaha.
Kavi bhyaha. So, this is the pattern. कवये ई अस्ति चेत् य भवति. चतुर्थी विभक्ति, चतुर्थी विभक्तेः लक्षणमस्ति ए. कवये कविभ्या कविभ्यः. अस्तु वा? अन्य कोऽपि अस्ति वा यः वक्तुम् इच्छति? न. अस्तु, परमेश्वर महोदय. बन्धुः
बन्धवे.
हा, उत्तमं. बन्धवे
बन्धुभ्यः.
बन्धुभ्यां बन्धुभ्यः, सम्यक्. बन्धुभ्यः सम्यक्. बन्धवे बन्धुभ्यां बन्धुभ्यः. अस्तु, उत्तमम्. उमाकृष्णन् भगिनी, अवधिः. उमाकृष्णन् भगिनी, ऐ वाण्ट् म्यूट् भगिनी. अवधिः इति अस्ति. सो सो अत्र पुल्लिङ्गम् इति अस्ति खलु. सो अत्र इकार अस्ति चेत्, इकारान्तपदम् अस्ति चेत् य ये भवति. सो अत्र अये भवति. उकारान्तपदम् अस्ति चेत् अवे भवति. अवधये. सो हरि विल् बिकम् हर ये. अवधये. अवधिभ्याम् अवधिभ्यः, सम्यक्. मध्ये भ्याम् अस्ति. भ्याम् बहुवचनं भ्यः. मूलरूपं लिखित्वा भ्याम्. मूलरूपं लिखित्वा भ्यः. अस्तु, उत्तमम्. अस्तु, अग्रे शारदा भगिनी. भ्राता, अत्र ऋकारान्तपदम्.
भ्रात्रे भ्रातृभ्यः,
सम्यक्. भ्रात्रे, अत्र चतुर्थी विभक्तेः लक्षणमस्ति ए. ऋकार अन्तपदं स्वतः भ्रात्रे मूलरूपं लिखित्वा ए भ्रातृ भ्रात्रे भ्रातृभ्यां भ्रातृभ्यः अवगच्छन्ति खलु पेटर्न् अस्तु धन्यवादः भगिनि श्रीनिवास महोदय वक्ता अपि ऋकारान्तपदं वक्तृ
वक्तृभ्यः
सो भवान् पृष्टवान् पुल्लिङ्गं वा स्त्रीलिङ्गं वा परन्तु समानरूपमेव भवति पित्रे पितृभ्यां पितृभ्यः मात्रे मातृभ्यां मातृभ्यः वयं रूपं दृष्ट्वा न जानीमः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति सो अत्र वक्ता वक्ता इति अस्ति चेत् वन् हू स्पीक्स् वक्तृ वयं सर्वे स्पीकर् सम्यक् वक्ता सो अत्र वेरि गुड् क्वश्चन् यूशुलि वेन् वी हेव् आ एण्डिङ्ग् इट् इस् ऋकारान्तपदम् वक्त्यै बट् इट् केनाट् बि वक्त्यै खलु ओन्ली इफ् इट्स् अ स्त्रीलिङ्गम्
I'm just saying without giving these things, if just vakta is a word, without mentioning pullinga or strilinga, but default akarantam we assume it to be strilinga.
Akaranta strilinga padam, samya. So atra...
Mata, simple, okay, we know it's a rikarantam because of the relationship.
Correct, correct. सो अत्र ईवन् इफ् इट् इस् स्त्रीलिङ्गपदम् उदाहरणार्थं माला अस्ति मालायै इति भवति मालायै वक्तायै इफ् इट् इस् ए स्त्रीलिङ्गपदं परन्तु वेन् दे से इट् इस् पुल्लिङ्ग यु केन् अस्यूम् इट् इस् ऋकारान्त लैक् पिता माता लैक् दट् अस्तु अग्रे सविता भगिनि
सुमत्यै सुमतिभ्यां सुमतिभिः
सुमतिभ्यां सुमतिभ्यः सुमतिभ्यः सुमतिभ्यां सुमतिभ्यः सुमत्यै इति स्त्रीलिङ्गवत् इफ् इट् इस् लैक् कविः एकं रूपं कथं भवति सुमति लैक् कवये इति विकं सुमतये
सुमतये सुमतये सुमतिभ्यां सुमतिभ्यः
सुमतिभ्यः इकार सुमत्यै अथवा सुमतये सुमत्यै अथवा सुमतये सुमतिभ्यां सुमतिभ्यः अस्तु अग्रे सन्ध्या भगिनि क्षम्यतां भगिनि ऐ म्यूटेड् यु इदानीं वदतु
सोरि भगिनि ऐ अन्म्यूटेड् इन् अड्वान्स् बिकास् ऐ वाज़् हविंग् प्रॉब्लम्स् विद् दैट् भगिनि
अवगतं भगिनि अवगतं
अभिरुचिः अभिरुचये अथवा अभिरुच्यै
सम्यक्
अभिरुचिभ्यां अभिरुचिभ्यः
सम्यक् सम्यक् पुल्लिङ्गवत् अये स्त्रीलिङ्गवत् यै
यै
ह्रस्व इकार ह्रस्व उकार अस्ति चेत् एवं भवति विकल्पः भवति. दीर्घ आकार ईकार ऊकार अस्ति चेत् विकल्पः न भवति. सम्यक् अस्तु.
धन्यवादः.
धन्यवादः. अम्ब अमीन अम्ब वक्तुम् इच्छति वा? अस्तु. उषा भगिनी.
परशुः
उत्तमं. परशवे गुरवे
परशवे परशवा परश.
सो अत्र वाट् इस् दट् इस् नियम टेक् द मूलरूपम् अण्ड् यु एड् भ्यां भ्यः. सो वाट् इस् द मूलरूपं हियर् परशुः
परशु परशुभ्यां
परशुभ्यां. सम्यक् परशुभ्यां
परशवे परशुभ्यां परशुभ्यः.
सम्यक् सम्यक् भगिनि. अस्तु अग्रे परमेश्वर महोदय. इदानीं याता इति न जानीमः. या मातावत् ऋकारान्तपदं वा याता इति मालावत् आकारान्तपदं वा कथं जानीमः? डिक्षनरि कोशं पश्यामः. याता इति अस्ति. याता इति सिस्टर् इन् ला इति अस्ति. याता स्त्रीलिङ्गपदम् आकारान्त स्त्रीलिङ्गपदम्. उदाहरणार्थं माता इति वदामः चेत् कथं भवति?
यात्रे यात्रां यात्राभ्यः.
सो अत्र याता इति मातावत् मातृ इति मूलरूपं वा न वा इति न जानीमः. एकनिमिषं महोदय. ओके शोयिङ्ग् अत्र नास्ति. एकनिमिषम् अन्य कोशं पश्यामि. सो अत्र माता इति लिखामः चेत् मातृ इति रूपं दर्शयति. परन्तु याता इति लिखामः चेत् अत्र नास्ति. सो अत्र पश्यन्तु याता अपि यातृ एव यातृ. यातृ सो अतः याता अपि मातृ इव ऋकारान्तपदम्.
यात्रे
यात्रे. सम्यक् यात्रे
यात्रेभ्यः
यात्रे यातृभ्यां यातृभ्यः. एतदपि ऋकारान्तपदमेव. सो श्रीनिवासमहोदय, दिस् इस् हौ यु फैण्ड् औट् याता इति अस्ति चेत्. इफ् यु आर् वेरि अन्फेमिलियर् जानीमः चेत् ऋकारान्त वा आकारान्त वा इति कोशं दृष्ट्वा जानीमः. अस्तु. उमाकृष्णन् भगिनी सूक्तिः. सूक्तिभ्यः. सम्यक्. अत्र विकल्पः अस्ति वा? इस् देर् अ चाय्स् अन्य रूपम् इति. सो अत्र ह्रस्व इकार अस्ति चेत् अस्ति विकल्प अस्ति. सो कथं कथं भवति? दीर्घः नास्ति. सो अतः सूक्त्यै सूक्तिभ्यां सूक्तिभ्यः इति अस्ति अथवा सो अत्र स्त्रीलिङ्गवत् यै भवति तस्यै सूक्त्यै अथवा कवये इति सूक्तये 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 इति अस्ति रूपम् अथवा सूक्त्यै अपि रूपम् अस्ति. सो दिस् इस् लैक् पुल्लिङ्गरूपं कविः कवये. दिस् इस् लैक् स्त्रीलिङ्ग गौरी गौर्यै सूक्यै. सो दिस् इस् द यै इस् द लक्षणम् आफ् स्त्रीलिङ्ग. अये इस् द लक्षणम् आफ् पुल्लिङ्ग बिकास् इट् इस् इकारान्त इट् गोस् वित् एदर् दिस् आर् दट् पुल्लिङ्गवत् अये भवति स्त्रीलिङ्गवत् यै भवति.
धन्यवादः.
धन्यवादः. अस्तु उत्तमम्. अस्तु अग्रे आवर्णे दत्तानां शब्दानां चतुर्थ्यन्तेन रूपेण एकवचनमेव रिक्तस्थलं पूरयत. सो अत्र स्त्रीलिङ्ग पुल्लिङ्ग इति दत्तम् अस्ति अत्र नास्ति. वयमेव अनुमानं कर्तुं शक्नुमः. अनुमानं करणीयम् अस्माभिः अनुमानं करणीयम्. अस्तु अग्रे का श्रीनिवास महोदय खलु अग्रे. अस्तु उदाहरणं मुरारये नमः. मुरारिः मुरारये नमः. अस्तु शनिः
शनिः शनये नमः.
शनये त्रीणि रूपाणि कृपया.
शनये शनिभ्यां शनिभ्यः.
शनिभ्यां शनिभ्यः. इट् डजन्ट् मेक् सेन्स्. एकमेव अस्ति एकः एव अस्ति शनिः परन्तु रूपाणि शनिभ्यां शनिभ्यः. अस्तु सविता भगिनी.
राहवे राहवे नमः.
राहवे के राहवे
नमः.
त्रीणि रूपाणि.
राहवे राहुभ्यां राहुभ्यः.
राहुभ्यां राहुभ्यः. अस्तु राहुभ्यां राहुभ्यः भ्यां भ्यः.
केतवे नमः.
सम्यक्. त्रीणि रूपाणि.
केतवे केतुभ्यां केतुभ्यः.
सम्यक्. केतुभ्यां केतुभ्यः. अस्तु अम्ब न वदति इति चिन्तयामि. अस्तु उषा उषा भगिनी. सविता सविता अपि ऋकारान्तपदम्. सो अत्र पुल्लिङ्गम् इति अस्ति खलु दट् इस् अ हिण्ट्. सो आकारान्त पुल्लिङ्गः नास्ति अतः ऋकारान्तपदम्. वक्ता दाता पिता वत् सवित्रि सवित्र
सवित्र सवित्रे
सवित्रे
सवित्रे नमः. सवित्रे सवित्राभ्यां
सवितृभ्यां
सवितृभ्यां सवितृभ्यः.
सवितृ. सो यु टेक् द मूलरूपम् अण्ड् एड् भ्यां भ्यः. सवितृभ्यां सवितृभ्यः. सम्यक् सम्यक्. अस्तु अन्य कोऽपि अस्ति वा? नास्ति. अस्तु परमेश्वर महोदय.
देनवे तृणं रोचते. देनवेभ्यां तृणं रोचते. देनवेभ्यः तृणं रोचते.
सो अत्र नियमः कः इति अस्ति चेत् मूलरूपं
धेनुः न
मूलरूपं किम् अत्र
धेनुः
धेनु एव उः न पुनः वदतु धेनवे
धेनवे धेन धेनभ्यां
खलु धेनुभ्यां मूलरूपं
धेनुभ्यां धेनुभ्यः
सम्यक् धेनवे धेनुभ्यां धेनुभ्यः धेनुभ्यः अस्तु उत्तमम् उमा कृष्णन् भगिनि माता माता इति कीदृशपदं मूलरूपं
मातृ
उत्तमं मातृ ऋकारान्तपदम् स्त्रीलिङ्ग पुल्लिङ्ग समानरूपं ऋकारान्त सो अत्र मात्रे इति भवति किञ्चित् मात्रे सम्यक् मातृभ्यः मातृभ्यः सम्यक् मात्रे मातृभ्यां मातृभ्यः पित्रे पितृभ्यां पितृभ्यः मूलरूपं स्वीकृत्य भ्यां भ्यः अत्र चतुर्थीविभक्तेः लक्षणमस्ति ए गुरवे अरये इत्यादि पित्रे भवते परन्तु रामाय अपि अस्ति यै अपि अस्ति स्त्रीलिङ्गे बट् जनरल् ए मात्रे मात्रे वदतु भगिनि मात्रे
मात्रे मातृभ्यां मातृभ्यः
सम्यक् मातृभ्यः सम्यक् अस्तु अग्रे कः सविता वा सविता शारदा वा न जानामि श्रीनिवासमहोदय श्रीनिवासमहोदय करे
वसुमतिः वसुमतिः स्त्रीलिङ्गं
सम्यक्
वसुमध्यै नर्तनं रोचते वसुमतिभ्यां वसुमतिभ्यः
सम्यक् वसुमतिभ्यां वसुमतिभ्यः अत्र एकवचने रूपद्वयम् अस्ति खलु एकम् अस्ति मत्यै मतये सम्यक् पुल्लिङ्गवत् मतये स्त्रीलिङ्गवत् मत्यै सम्यक् सविता भगिनी अग्रे दुहिता इति ऋकारान्तपदम्
दुहित्रे शिशुपालं रोचते पालनं रोचते दुहित्रे
त्रीणि रूपाणि
दुहित्रेभ्यां दुहितृभ्यः
सम्यक् दुहितृभ्यां दुहितृभ्यः
दुहितृभ्यः
सम्यक् दुहित्रे दुहितृभ्यां दुहितृभ्यः
दुहितृभ्यः
सम्यक् दुहितृभ्यः सम्यक् अस्तु अग्रे दत्तानां शब्दानां चतुर्थी बहुवचनरूपाणि रिक्तस्थानानि पूरयत अस्तु सन्ध्या भगिनी सो अत्र दे गिवन् द मूलरूपं वेरि नैस् आफ् दम् ओके वक्त्रा वदतु भगिनि
उदाहरणं प्राध्यापकः वक्तृभ्यः गौरवधनं दत्तवान्
अत्र त्रीणि रूपाणि अपि वदतु अभ्यासार्थं
वक्त्रे वक्तृभ्यां वक्तृभ्यः
सम्यक् वक्त्रे वक्तृभ्यां वक्तृभ्यः सम्यक्
आं
भगिनि
राघवः अतिथिभ्यः स्मरणिकां दत्तवान्.
अतिथये अतिथिः इति पुल्लिङ्गपदम् अतः विकल्पः न भवति अतिथये एव.
राघवः अतिथिभ्यः स्मरणिकां दत्तवान्.
सम्यक् सम्यक् भगिनि.
नमस्कारः. अतिथि स्त्रीलिङ्गम् अस्ति वा?
साधारणतया पुल्लिङ्गे एव, परन्तु वयं स्त्रीलिङ्गे अपि वक्तुं शक्नुमः. मम अतिथिः इति वदामः चेत् स्त्रीलिङ्गमपि भवति. आम् आम्, बट् अतिथिः इस् साधारणतया पुल्लिङ्गपदमेव. पश्यामः कोशे, सर्वदा कोशं पश्यामि. अतिथिः मेबि ऐ रोट् इट् रोङ्ग्. ओके, अतिथि अतिथि पुल्लिङ्गपदम्. अत्र नपुंसकलिङ्ग एवम् अस्ति, पुल्लिङ्ग नपुंसक अतिथि, परन्तु अतिथा अपि साधारणतया पुल्लिङ्गे एव अतिथिः, परन्तु एवम् अस्ति अतिथा. अहं न श्रुतवती अतिथा, अतिथि एव.
भगिनि एकः प्रश्नः अस्ति.
आम् आं भगिनि, अतिथा नास्ति, अतिथिः एव. वदतु भगिनि.
इन् जनरल् ऐ मीन् याता, माता, दुहिता समानमेव अस्ति वा भगिनि?
आम् आम्.
सो केन् वी जनरलैस् अण्ड् से देट् in general all relatives will be a yatra, matra, duhitra kind of a pattern?
Yeah, like all the akara anta padams probably.
Oh,
am bagra
amaja agraja definitely akarandam.
Agraja is akara, so we cannot say it as a rule bagini, parantu it's like that. We can assume like that. फार् एक्साम्पल् स्वसा इति अस्ति, स्वसा अपि ऋकारान्तपदं, स्वसृ, मातृ, दुहिता, दुहितृ,
भ्रातृ,
भ्राता, भ्रातृ, बट् भ्राता इस् पुल्लिङ्ग,
पुल्लिङ्ग,
दुहिता इस् स्त्रीलिङ्ग. सो वि जस्ट् हाव् टु नो दट्स् आल्.
ओके ओके.
उषा भगिनी.
आं भगिनि. अर्चकः सेवाकर्तृ, अर्चकः सेवाकर्त्रे
सम्यक्
प्रसादं दत्तवान्.
दत्तवान्, सो अत्र कर्तृ इति अस्ति चेत् पुल्लिङ्गपदं कर्तृ.
कर्त्रे,
सो अत्र स्त्रीलिङ्गे कर्त्री भवति.
कर्त्री, ओके. सेवाकर्तृ, कर्त्रे, कर्ताभ्यां,
कर्तृ, सो अत्र
मूलभ्यां सेवाकर्तृभ्यां सेवाकर्तृभ्यः.
सम्यक्.
स्त्रीलिङ्गम् इट् विल् बी सेवाकर्तये, सा सेवा
अहं लिखामि एकनिमिष सेवा कर्त्री कर्त्री इति
कर्त्री
सेवा कर्त्री
सेवा कर्त्री
हम्म
देयर शुड बी रकार देयर राइट
हम्म
कर्त्री कर्त्री
लाइक गौरी
या ओके कर्त्री कर्तये
no so only if it is hrasva it is aye
oh
if it is dirgha like bhavati
bhavatya
bhavatyai
bhavatyai okay so seva kartrai
kartrai yai
seva kartri yai
yeah seva kartriyai bhavati yai seva kartriyai seva
so how do we write the whole word Bhagini
seva I'm not writing seva param
kartriyai
kartriyai kartriyai
oh okay so it's a half matra like
yeah okay. seva kar so you have to pronounce the ir first kar tr yai
okay
I'll write it like this
Seva
kartriyai.
Okay. Seva kartriyai, seva kartri... what would be the...
Kartribhyam.
Seva kartribhyam.
Kartribhyam. Kalo, kartri.
Seva kartribhyam, seva kartribhihi.
Bhyaha.
Oh, kartribhyaha. Kartribhihi would become tritiya, right?
Tritiya.
Yeah. ओके
अस्तु अग्रे परमेश्वर महोदय
शिक्षयः
शिष्यः
सोरि शिष्यः गुरवे पादं दत्तवान्
पाद्यं दत्तवान्
सोरि शिक्षयः गुरवे पाद्यं दत्तवान् शिष्यः गुरुभ्ये पाद्यं दत्तवान्
सो अत्र रूपं कथं भवति गुरवे
पाद्यं दत्तवान्
अस्तु द्विवचने
गुरुभ्यां पादं दत्तवान्
गुरुभ्यां पाद्यं दत्तवान् सम्यक्
गुरुभ्यस्य पाद्यं दत्तवान्
न न भ्यां गुरुभ्यः इति अस्ति चेत् बहुवचनरूपं
गुरुभ्यै
गुरुभ्यै न भवति गुरवे गुरवे
गुरुभ्यः गुरुभ्यः पाद्यं दत्तवान्
गुरवे गुरुभ्यां गुरुभ्यः अस्तु उमाकृष्णन् भगिनि
पिता दुहित्र धनं दत्तवान् दुहितृभ्यः
सम्यक् दुहितृभ्यः धनं दत्तवान् सो अत्र प्रथम एकवचनं द्विवचनं दुहितृभ्यः अत्र मूलरूपं लिखित्वा भ्यां भ्यः तावदेव दुहितृभ्या दुहितृभ्यः
पितृभ्य
दुहितृभ्यः प्रथमाविभक्तिरूपं कथं भवति दुहितृ इति अस्ति चेत्
दुहित्रे
दुहिता
ओ प्रथमाविभक्ति ओके
दुहिता मातृ माता वक्तृ वक्ता एवम् उत्तमम् अस्तु शारदा भगिनी शत्रु
राजा शत्रुभ्यः दण्डनं दत्तवान् शत्रे शत्रुभ्यां शत्रुभ्यः
सो अत्र किञ्चित् भिन्नरूपम् इस् नाट् ऋकारान्त न इस् आक्चुलि उकारान्त शत्रु
शत्रुये
इस् नाट् शत्रु लैक् दट्
शत्रवे शत्रुभ्यां शत्रुभ्यः
शत्रवे शत्रुभ्यां शत्रुभ्यः अस्तु
Again, this is also tricky, right? This is like a guru padam, it is not a rukaranta padam, because they are not written that...
like that, right? It's not...
It's a general rukaranta padam.
It's not written like shatru. Shatru. It's actually shatru. Shatru. Like guru.
Tricky.
Yeah, it is tricky. Asta, agre? श्रीनिवास महोदय भवानेव
पुत्राः मातृभ्यः सुवर्णहारं दत्तवन्तः मातरे मातृभ्यां मातृभ्यः
मातरे न भवति
मात्रे सारि मात्रे मातृभ्यां मातृभ्यः
सम्यक् मात्रे मातृभ्यां मातृभ्यः अस्तु अस्तु सो अग्रे गच्छामः वा पञ्चमी विभक्ति पुनरेकवारं पश्यामः वा चतुर्थी विभक्ति कथं भवति प्रथमा विभक्ति अ अस्ति चेत् अकारान्त रामः अस्ति चेत् रामाय रामाभ्यां रामेभ्यः नपुंसकलिङ्गे समानरूपं भवति अकारान्तपदम् अस्ति चेत् अकारान्त पदम् अस्ति चेत् एवमेव भवति आकारान्तपदम् आकारान्त केवलं स्त्रीलिङ्गे एव भवति परन्तु माता वक्ता इति अस्ति चेत् आकारान्त स्त्रीलिङ्ग न वयं ज्ञातव्यं वि हेव् टु नो इति लैक् अम्बा अग्रजा अनुजा इति अस्ति चेत् यै स्त्रीलिङ्गस्य स्त्रीलिङ्गपदस्य लक्षणमस्ति यै रमा यै इति स्त्रीलिङ्गे एव भवति यै परन्तु आभ्याम् आभ्यः अस्तु ह्रस्व इकार स्त्रीलिङ्गे समानरूपं भवति हरये हरिभ्यां हरिभ्यः मतये मतिभ्यां मतिभ्यः परन्तु स्त्रीलिङ्गे विकल्पः भवति देर् इस् अनदर् चाय्स् स्त्रीलिङ्गवत् यै अपि अस्ति द्विवचनं बहुवचनं समानम् इभ्यां परन्तु नपुंसकलिङ्गे भिन्नरूपं नकारः भवति वारिणे परन्तु इभ्यः एकवचने एव भिन्नरूपं भवति ईकारान्त यै गौर् यै ईभ्याम् ईभ्यः उकारान्तपदम् अवे इकारान्त अये उकारान्त अवे उकारान्तस्त्रीलिङ्गे अपि अवे वक्तुं शक्नुमः धेनवे उभ्याम् उभ्यः परन्तु स्त्रीलिङ्गवत् यै अपि वै अपि भवति ऐ मात्रा भवति ऐ धेनवे धेन् वै उकार अस्ति चेत् वै धेनु धेन् वै परन्तु नपुंसकलिङ्गे मधुने नकारः भवति मधुने मधुभ्यां मधुभ्यः दीर्घ ऊ अस्ति चेत् विकल्पः नास्ति वै ऊभ्याम् ऊभ्यः वद्वै वधूभ्यां वधूभ्यः मातृ पितृ समानरूपं पुल्लिङ्गं वा स्त्रीलिङ्गं वा मात्रे पित्रे पितृभ्यां पितृभ्यः तस्मै ताभ्यां तेभ्यः तस्यै ताभ्यां ताभ्यः ताभ्यः अत्र एभ्यः तेभ्यः मै पुल्लिङ्गे यै स्त्रीलिङ्गे नपुंसकलिङ्गे अपि मै एव कस्मै कस्यै अपि समानं भवान् शब्दः अपि भिन्नशब्दः भवते भवति भवते परन्तु भ्यां भ्यः सर्वत्र समानं भ्यां भ्यः अत्रापि भवत्यै भवतीभ्यां भवतीभ्यः भवती इति स्त्रीलिङ्गवत् गौरीवत् गौर्यै गौरीभ्यां गौरीभ्यः भवत्यै भवतीभ्यां भवतीभ्यः सर्वस्मै मह्यम् आवाभ्याम् अस्मभ्याम् अस्मभ्यं मे नौ नः अस्तु इदानीं पञ्चमी विभक्तिरूपं पश्यामः पञ्चमी विभक्तिरूपं वयं पूर्वं पठितवन्तः सर्वत्र तः इति अत्र सर्वत्र तः योजयामः रामतः रमातः हरितः गुरुतः पितृतः पितृ इति मूलरूपम् उपयुज्य मतितः गौरीतः धेनुतः मूलरूपं योजयित्वा तः इति उपयोगं कुर्मः चेत् सम्यक् एव परन्तु वयम् इदानीं उच्चै स्तरे स्मः वि आर् न हायर् लेवल् अतः रूपाणि भिन्नं भवति भिन्नानि भवन्ति रामात् अकारान्तपदम् अस्ति चेत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपम् आत् परन्तु यथा चतुर्थीविभक्तिरूपम् अस्ति तथा एव पञ्चमीविभक्तिरूपमपि अस्ति आभ्याम् एभ्यः आभ्याम् आभ्यः इभ्याम् इभ्यः ईभ्याम् ईभ्यः सो वयं चतुर्थीविभक्तिरूपं जानीमः चेत् पञ्चमी अपि समानमेव अत्र दोषः अस्ति वधुभ्यां वधूभ्यां सो अत्र पञ्चमी चतुर्थीविभक्तिरूपं समानम् इभ्याम् इभ्याम् इभ्यः ईभ्याम् ईभ्यः कथं जानीमः पञ्चमी वा चतुर्थी वा इति अर्थं जानीमः चेत् वयं जानीमः पञ्चमी वा चतुर्थी वा इति अस्तु सो अत्र पुल्लिङ्गे आत् आत् भवति आत् भवति स्त्रीलिङ्गे याः भवति याः यथा षष्ठीरूपम् अस्ति तथा एव पञ्चमीरूपमपि अस्ति नद्याः नाम किं नद्याः जलं स्वीकरोमि सो अत्र गौर्याः गौर्याः पुत्रः कः गौर्याः पुस्तकं स्वीकरोमि गौर्याः पुस्तकं स्वीकरोमि अत्र पञ्चमीविभक्तिरूपं गौर्याः पुत्रः कः तत्र षष्टिविभक्तिरूपं कथं जानीमः पञ्चमी वा षष्टि वा इति अर्थं दृष्ट्वा अर्थं ज्ञात्वा वयं जानीमः पञ्चमी वा षष्टि वा इति परन्तु रूपं समानमेव रमायाः रमायाः गृहं कुत्र अस्ति तत्र षष्टिविभक्तिरूपं रमायाः शाटिकां स्वीकरोमि स्वीकरोमि इति अस्ति चेत् साधारणतया पञ्चमीविभक्तिरूपमेव नगरात् नगरात् सुलभमेव नगरं नगरात् अत्र अत्र सन्देहः नास्ति नगरात् इति अस्ति चेत् पञ्चमी एव सो वयं षष्टिरूपं जानीमः चेत् पञ्चमी अपि सुलभः एव एतावत्पर्यन्तम् एवं वयं जानीमः रामात् रमायाः अपि च गौर्याः नूतनरूपाणि एवम् अस्ति. हरिः इकार ह्रस्व इकार ह्रस्व उकार दीर्घ ऊकार इति अस्ति चेत् अस्तु. प्रथमम् इकारं पश्यामः. इ हरि अस्ति चेत् हरेः. पञ्चमी षष्टि समानरूपं हरेः हरेः हरिभ्यां हरिभ्यः. परन्तु अत्र भिन्नभिन्नरूपं भवति. एकवचनरूपं समानमेव. पञ्चमी षष्टि एकवचनरूपं समानं हरेः. एवमेव गुरोः अत्रापि गुरोः. परन्तु अत्र गुरुभ्यां गुरुभ्यः षष्टिविभक्ते गुरुभ्यां गुरुभ्यः न. गुरुभ्यां गुरुभ्यः कुत्र अस्ति? चतुर्थीरूपे अस्ति. चतुर्थिवत् गुरुभ्यां गुरुभ्यः अस्तु. एवम् एवमेव मतिः इति अस्ति चेत् पुल्लिङ्गवत् मतेः. परन्तु स्त्रीलिङ्गवत् मत्याः. अवगच्छन्ति खलु पैटर्न्? पुल्लिङ्गवत् मतेः स्त्रीलिङ्गवत् मत्याः मतिभ्यां मतिभ्यः.
सो मत्याः मतेः is also correct as it is used in the pumlingam.
So we can either say mateh athava matyah. Nama asti kalo kantimati kantimatihi iti kantimateh pustakam swikarotu swikarotu iti likamah chet panchami vibhakti sadharnataya. कान्तिमतेः पुस्तकं स्वीकरोतु कान्तिमत्याः पुस्तकं स्वीकरोतु. सो अत्र कान्तिमत्याः पुस्तकं स्वीकरोतु इति वदामः चेत् षष्टि वा पञ्चमी वा? इट् कुड् बि बोत् खलु. कान्तिमत्याः पुस्तकं कान्तिमतीतः पुस्तकं स्वीकरोतु कान्तिमत्याः पुस्तकं स्वीकरोतु द्वौ अपि भवति. अस्तु.
It's a function of where you put the punctuation.
Ah, exactly. When you pause, Kanti Matyaha Pustakam Svikarotu. Atava Kanti Matyaha Pustakam Svikarotu. Iti. Samyak. Astu. So, Gauri asichet Gauriyaha. Vayam Jani Maha. Kalo Parvatyaha Putraha. Shashti Rupam Evam Bhavati. Tata Eva Panchami Api Bhavati. अस्तु. गुरोः धेन्वोः धेनोः अहं चिन्तयामि धेन्वोः इति अहं पश्यामि. अतः अपि च धेन्वाः अपि अस्ति. मत्याः वा इव धेन्वाः अपि अस्ति. धेनुभ्यां धेनुभ्यः. पितुः मातुः. मम पितुः नाम इति वदामः चेत् षष्टिविभक्तिरूपं. पितुः नाम गोपालः. मम पितुः नाम गोपालः षष्टिविभक्तिरूपम्. पितुः धनं स्वीकरोमि. पितुः धनं स्वीकरोमि. तत् पञ्चमीरूपम् अस्ति. अस्तु. सर्वनामपदम् अपि आत् भवति. तस्मात् पुल्लिङ्गे नपुंसकलिङ्गे मात् तस्मात् स्त्रीलिङ्गे तस्याः कस्याः. पञ्चमी षष्टि समानरूपं भवतः नाम किम्
भगिनि? तस्मात् इस् इट् मीनिङ्ग् आल्सो लैक् बिकास् ओर् इस् इट् जस्ट्
बिकास् अपि बिकास् अपि तस्मात् कारणात्.
And we can also say it's like from.
From. Ah.
Okay.
So, atra, so, pratamam evam rupam asti. रामात् ज्ञानात् आभ्यामेभ्यः रमायाः रमाभ्यां रमाभ्यः षष्ठी पञ्चमी समानरूपं प्रथमाविभक्ति कुत्र एक पुल्लिङ्गे अकारान्त पुल्लिङ्गे न परन्तु अन्य सर्वत्र रमायाः हरेः मत्याः समानसमानं भवति अस्तु विभक्तिवल्लरीं पश्यामः पुनः पुनः रूपाणि पश्यामः एव अत्र सो अत्र पञ्चमी विभक्ति कुत्र कुत्र उपयोगं करणीयम् इति विभागः विभागः सेपरेशन् विभागः यदा भवति तदा यः अवधिभूतः भवति इत्युक्ते कुतः कुतः सेपरेशन् भवति तस्य पञ्चमी विभक्तिरूपं भवति यः अवधिभूतः भवति इत्युक्ते विच् लूसेस् अवधिभूतः इत्युक्ते विच् लूसेस् वाट् एवर् इस् बीङ्ग् सेपरेटेड् उदाहरणार्थम् अत्र अस्ति वृक्षात् पर्णं पतति सो वृक्षः लूसेस् द पर्णम्
ओके
सो यः whichever is I hate to use the word loser but whichever is it is separated from
so it is like that word purna in that purnamadam
bhagati vadatu punah vadatu
purna like a purnamada purnamidam purna purnamidachyate
from the purnam we get a purna पूर्णात् पूर्णं
ओके
लैक् दट् पूर्णात् पूर्णं सो
सिम्पल् लाङ्ग्वेज् द वन् विच् इस्
लेटिङ्ग् इट् गो सम्यक् फ्रम् वेर् इट् गेट् सेपरेटेड् फ्रम् सो यूस् द वर्ड् फ्रम् विच् एवर् इस् लेटिङ्ग् इट् गो वृक्षात् पर्णं पतति गृहात् बहिः गच्छति हस्तात् पतति गुरोः अमृतवचनम् आगच्छति हरेः आशीर्वादं स्वीकरोमि लैक् दट् फ्रम् वेर् पञ्चम्यर्थे तः इति प्रयोगः सरलः तः तस् इस् द मूलरूपं तः इत्येतत् अव्ययं सर्वेषु लिङ्गेषु तस्य समानं रूपं मूलरूपं लिखित्वा तः वृक्ष इति मूलरूपं वृक्षतः सपोजिङ्ग् वाटर् इस् फालिङ्ग् फ्रम् द लीफ् पर्णम् इति अस्ति प्रथमाविभक्तिरूपं परन्तु पर्ण इति मूलरूपं पर्णतः जलं पतति श्रवयति श्रवयति नदीतः नदी इति मूलरूपं हरि हरितः गुरु गुरुतः इति तः अपि सरलरूपं परन्तु रूपाणि एवं भवन्ति अस्तु गोविन्दस्य गृहे कश्चन कार्यक्रमः आसीत् प्रोग्राम् कार्यक्रमः सम् फङ्क्षन् कार्यक्रमः आसीत् कार्यक्रमार्थं विभिन्नस्थलेभ्यः सि बहुवचनरूपं स्थलेभ्यः स्थलं स्थलेभ्यः विभिन्नाः जनाः आगताः स्थलेभ्यः इति चतुर्थी रूपमपि अस्ति पञ्चमी रूपमपि अस्ति स्थलेभ्यः आगताः सो अर्थः कः फ्रम् इति अर्थे अस्ति स्थलेभ्यः आगताः सो अत्र पञ्चमी विभक्तिं सूचयति. कः कुतः, कः कुतः आगतवान्. सो हियर् वि डोण्ट् यूस् कस्मात्. कः कस्मात् आगतवान् वि जनरली डोण्ट् यूस्. कः कुतः आगतवान् इति अधः निर्दिष्टम् अस्ति. तदाधारेण वाक्यानि रचयत. उदाहरणार्थं मैसूरुतः मातुलः आगतवान्. मैसूरुतः, सो अत्र ऐ थिङ्क् दे वाण्ट् यु टु यूस् तः सर्वत्र. अथवा आन् द बाटम् इस् देर्, यदि तः इति प्रयोगं भवति न इच्छति तर्हि विभक्तियोजनसमये. सो अत्र वि काल् दिस् अ समस्तपदं, त्री वर्ड्स् टुगेदर्, विभक्तियोजनसमये. सो सर्वत्र मूलरूपमेव अस्ति विभक्तियोजनसमये. मैसूरुनगरात् इत्येवं प्रयोगं सरलः भवति. किमर्थम् इत्युक्ते मैसूरु इति संस्कृतपदं नास्ति, अतः मैसूरुनगरात् एवं वक्तुं शक्नुमः वयं. काशीनगरात् अत्र सुलभः एव. सो अग्रे पश्यामः, समयः अभवत् इति अग्रे किं किम् अस्ति इति पश्यामः. सो अत्र द्वितीय अभ्यासे साक्षात् रूपाणि भवति. आपणः आपणात्, वित्तकोशः वित्तकोशात्, गोविन्दः कार्यक्रमार्थं विविधस्थानतः. सो अत्र स्थानेभ्यः इति आसीत् खलु, अत्र स्थानतः विविधानि वस्तूनि. यत्र भीतिः भवति, कस्मात्, कस्मात् भीतिः, तस्य पञ्चमीरूपं भवति. रावणः रामात् भीतः आसीत्. किमर्थं भीतः? हि इस् भीतः, हि इस् स्केर्ड्. सो भीतः, इफ् इट् इस् स्त्रीलिङ्ग, भीता. सीता रावणात् भीता अस्ति. अग्रे किं किम् अस्ति इति एकवारं पश्यामः. यस्मात् रक्षणं, प्रोटेक्षन् फ्रम् हूम्. देवः अपायम् अपायात् मां रक्षितवान्. अपायम् अपायात्, अग्रे किम् अस्ति? अस्तु अग्रे पश्यामः किं किम् अस्ति इति. बहिः आरभ्य ऋते पूर्वं परः, एतानि पदानि सन्ति चेत् पञ्चमी विभक्ति भवति. अस्तु अग्रे पश्यामः, इदानीं समापयामः. प्रश्नः अस्ति वा
भगिनी?
Yeah, so I had sent it in the WhatsApp. I'll send it again. Because, yeah.
Okay, thank you.
I'll send it again. Okay. Samapyamaha Shanti Mantra Murtva. Astu. Om Sarve Bhavantu Sukhinaha Sarve Santu Niramayaha Sarve Bhadrani Pashyantu मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.